अथ दशमोऽध्याय श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वच यत्तेऽहं प्रियमाणाय वक्ष्यामि हितकाम्यं न मे विदुःसुरगणा प्रभवाणा महर्षय अहमादिर्हि देवानां महर्षीणाञ्च सर्वश जो मामयमनादिञ्च वेत्ति लोकमहेश्वरम् असङ्गमूढसमर्थेषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसङ्गमोह क्षमा सत्यं दमश्यम सुखं दुःखं भवो भावो भयं चाभयमेव च अहिंसा समता तुष्टि स्तपो दानं यशो यश भवन्ति भावा भूतानां मत्त एव पृथग्विधा महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मदभावा मानसायाता येषां लोकाइमप्रया एतां विभूतिं योगञ्च मम यो वेत्ति तत्त्वतः सोऽविकम्पेन योगेन युज्यते नात्र संशय अहं सर्वस्य प्रभवो मत्त सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधा भाव समन्विता मच्चित्ता मद्गत प्राणा बोधयन्तः परस्परं कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च एषां सततयुक्तानां भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मामुपयान्ति ते तेषामेवानुकम्पार्थ महमज्ञानजं तव नाशयाम्यात्मभावस्तु ज्ञानदीपेन भास्वत अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्य मादिदेव मजं विभुम् आहुस्त्वामुषयः सर्वे देवर्षिर्नारदस्तथा अशितो देवलो व्यास स्वयं चैव ब्रवीषि मे सर्वमेतद्द्रुतन्मन्ये जन्मं वदसि केशव न हि ते भगवन् भक्तिं विदुर्देवा न दानव स्वयमेवात्मनात्मानं वेत्तत्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तु माढस्य शेषेण दिव्याध्यात्मविभूतय जाभिर्विभूतिभिर्लोका मिमांस्तं व्याप्रतिष्ठसि कथं विद्यामहं योगिं स्त्वं सदा परिचिन्तयन् केषु केषु च भावेषु चिन्तोषि भगवन् मयां विस्तरेणात्मनो योगं विभूतिञ्च जनार्दन भूय कथय तृप्तिर्हि शृणतो नास्ति मे मृतम् श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्याध्यात्मविभूतय प्राधान्यतः कुरु श्रेष्ठ नास्तन्तु विस्तरस्य मे अहमात्मा गुराकेश सर्वभूताशयस्थित अहमादिश्च मद्धञ्च भूतानामन्त एव च आदित्यानामहं विष्णुर्ज्योतिषं रविरंशुमन् मरिचिर्मरुतामस्मि नक्षत्राणामहं शशि वेदानां सामवेदोऽस्मि देवानामस्मि वासव इन्द्रियाणां मनश्चास्मि भूताणामस्मि चेतना रुद्राणां शङ्करश्चास्मि वित्तेषु यक्षरक्षसां वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् पुरोधसाञ्च मुख्यङ्गमां विद्धि पार्थ बृहस्पतिं सेनानीनामहं स्कन्द सरसामस्मि सागर महर्षीनां भृगुरहं गिरामस्मेकमक्षरं यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय अश्वत्थ सर्ववृक्षाणां देवर्षीणां च नारद गन्धर्वाणां चित्ररथ सिद्धानां कपिलो मुनि उच्चैस्तवशमश्वानां विद्धि मामृतोद्भवं ऐरावतं गजेन्द्राणां नराणां च नराधिपम् आयुधानामहं वज्रं धेनूनामस्मि कामधूर् व्रजनश्चास्मि कन्दर्प सर्पाणामस्मि वासुके अनन्तश्चास्मि नागानां वरुणो यादशामहं पितॄणामर्जवाश्चास्मि यमस्यं यमतामहं प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहं मृगाणां च मृगेन्दोऽहं वैनतेयश्च पाक्षिणां पवनः पवतामस्मि रामः शस्त्रभृतामहं झषानां मकरश्चास्मि सूतसामस्मि जाह्नवी षडगाणामादिदन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वादप्रवदतामहं अक्षरानामकारोऽस्मि दन्तश्यामाशिकः स च अहमेव क्षयः कालो भाताहं विश्यतो मुख मृत्युः सर्वहराश्चाह मुद्भवश्च भविष्यतम् कीर्तिश्रीर्वाक्षराणीनां स्मृतिर्मेधाधृतिक्षमां बृहत्साम तथा साम्नां गायत्री छन्दसामहं माशानां मार्गशीशुः मृतूनां कुसुमाकर दूतं छलयतामस्मि तेजस्तेजस्विनामहम् ययोऽस्मि व्यवसायोऽस्मि सत्तं स्वत्ववतामहं वृष्णीनां वासुदेवोऽस्मि पाण्डवाणां धनञ्जय मुनीनामप्पहं व्यास कवीनामूषणः कवि दन्दोदमयतामस्मि नीतिरसमि जिगीषतां मौनं चैवास्मि गुज्यानां ज्ञानं ज्ञानवतामहं यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यस्यन् मया भूतं चराचरम् नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप एतदुद्देशतः प्रोक्तो विभूतेर्विस्तरो मया यद् यद् विभूतिमत्सत्त्वं श्रीमद्दुर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोऽंशसम्भवम् अथवा बहुनैतेन किं ज्ञातेन तवार्जुन विष्टभ्याहमिदं कृष्ण मेकं सेना स्थितो जगा तत्सत् इति श्रीमहाभारते शतसहस्रयाङ्ग संहितायां वैयाशिक्यां भीष्मपर्वणी श्रीमद्भगवद्गीतासूपनिषदसु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः।